स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। भज गोविन्दं भज गोविन्दं भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते। संप्राप्ते सन्निहिते काले संप्राप्ते सन्निहिते काले नहि नहि रक्षति दुख करने नहि नहि रक्षति दुख करने। भज गोविन्दं भज गोविन्दं भज जहि धनागमतृष्णा मूढ़ जहि धनागमतृष्णा पुरुषद्बुद्धि मनसि वितृष्णा पुरुषद्बुद्धि मनसि वितृष्णा यल्ल भसे निज कर्मोपातम् यल्ल भसे निज कर्मोपातम् वित्तं तेन विनोदय चित्तम्। भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते शक्तः तावनिज परिवारो रतः यावत्पितो पार्जन शक्तः तावनिज परिवारो रतः पश्चा जीवति निमेषात् काल सर्वं मा कुरुधन जन यौवन कर्म हरति निमेषात् काल सर्वं माया विषमिदित्वा। भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते। सुरमन्दिरतरु मूलनिवासः शय्याभूतलम् अजिनं वासः सुरमन्दिरतरु मूलनिवासः शय्याभूतलम् अजिनं वासः सर्वपरिग्रह भोगत्यानः सर्वपरिग्रह भोगत्यागः कस्य सुखं न किञ्चिदधीता भगवद्गीता किञ्चिदधीता गङ्गाजलकणिकापीता भगवद्गीता किञ्चिदधीता सकृदपियेन मुरारि समर्च सकृदपियेन मुरारि समर्च क्रियते तस्ययमेन न चर्चा क्रियते तस्ययमेन न चर्चा भज गोविन्दम्
भज
पुनरपि जनन पुनरपि जननी जठरे शयनम् इह संसारे बहुतो बहुदुस्तारे कृपया पारे पाहि मुरारे कृपया पारे पाहि मुरारे
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
ज्ञेयं गीता नामसखस्वं ज्ञेयं श्रीपति रूपमजस्वं ज्ञेयं गीता नामसखस्वं ज्ञेयं श्रीपति रूपमजस्वं ज्ञेयं सज्जन संगे चित्तं ज्ञेयं सज्जन संगे नास्ति तत् सुख क्लेश सत्यम् अर्थमनर्थं भावय नित्यं नास्ति तत् सुख क्लेश सत्यम् पुत्रादपि धनभाजं भीतिः पुत्रादपि धनभाजं भीतिः सर्वत्रैषा विहितारीतिः सर्वत्रैषा विहितारीतिः
भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते
गुरुचरणाम्बुज निर्भर भक्तः संसार चिराद्भवमुक्तः गुरुचरणाम्बुज निर्भर भक्तः संसार चिराद्भवमुक्तः हृदयस्थं देवं रक्षसि च హృదయస్థం దేవం
భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే.